एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। रोल्पा जनपदस्य माडी ग्रामपालिकायाः तृतीयवडा क्षेत्रे ह जीपयानम् दुर्घटितम् वर्तते। दुर्घटनायाम् अष्टौ जनाः मृताः सन्ति। मृतकानाम् परिचय अधुनावधि न सम्भूतोऽस्ति। मृतकानाम् संख्या इतोऽपि अधिका भवितुम् शक्नोति। स्थानीयाः प्रहरिणः नगर प्रहरिणश्च सम्प्रति उद्धार कर्मणि संलग्नाः वर्तन्ते। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा सत्ता परिवर्तनम् भविष्यतीति उक्त्वा बहिः प्रसारिते समाचारे सत्यता नास्ति स्पष्टीकरोति। सिंह प्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टे मन्त्रिपरिषदः उपवेशे प्रधानमन्त्री प्रचण्डः सत्ता समीकरणस्य विषये सत्यता नास्ति, इदमेव घटबन्धनम् दीर्घकालम् यावत् धास्यतीति च विज्ञापितवान् इति मन्त्री शर्मा असूचयत। मन्त्री शर्मा सत्ता गठबन्धनस्य शीर्षनेतृषु अनुकूलम् विमर्शनम् जायमानमस्ति, बहिः प्रसारिताः समाचाराः यथार्थ विषयाः न सन्तीति समस्पष्टयत्। प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्डः पूर्व युव विद्यार्थिनाम् कृते स्वदेशे एव संस्थितेः वातावरणस्य निर्माणाय विश्वविद्यालयानाम् अग्रेसरता अपरिहार्या वर्तते इति निगदति। पूर्वांचल विश्वविद्यालय सभायाः ४९ उपवेशम् ह्यः सम्बोधयन् प्रधानमन्त्री प्रचण्डः पश्चात्तन समये विदेशे गन्तुकामानाम् विद्यार्थिनाम् संख्या वर्धमानास्तीति उक्त्वा एतद् रोद्धव्यमिति बलम् प्रादाद। पाठ्यक्रमेषु आमूल परिवर्तनम् विधाय अध्ययनेन सहैव उद्यमानाम् निर्वाहमुखिनः वृत्त्युपार्जनस्य च व्यवस्थायाः कृते विश्वविद्यालयैः विशेष भूमिका निर्वोढव्येति आवश्यकताम् न्यश्चित् चिन्वन् प्रधानमन्त्री प्रचण्डः वैकल्पिक स्रोत साधनानाम् अन्वेषणाय अपि ध्यानम् केन्द्रीकर्तव्यमित्यत्र बलम् प्रादात्। प्रधानमन्त्रिणः पुष्पकमला दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये सर्वकारस्य कार्याणि इतोऽपि प्रभावकारिणि विधातुम् विमृष्टम् वर्तते। प्रधानमन्त्रिणः प्रचण्डस्य अध्यक्षस्य ओलिनश्च मध्ये मेलवार्तायाः अनन्तरम् वर्तमान सर्वकारस्य समीकरणस्य विषये बहिः प्रसारिताः इव काश्चन समस्याः न सन्ति, तादृशी कापि समस्या नागच्छतु इत्येतदर्थम् उभयोर्मध्ये विमृष्टमिति प्रधानमन्त्रिणः संचार परामर्शदाता गोविन्द आचार्यः असूचयत्। प्रधानमन्त्रिणः प्रचण्डस्य अध्यक्षस्य ओलिनश्च मध्ये मन्त्रिपरिषदः पुनर्संघटनस्य विषये शान्ति प्रक्रियायाः अवशिष्टानाम् कार्याणाम् निष्कर्षे प्रापणस्य च विषयेषु विमृष्टम् आसीत्। सर्वकारेण विभिन्न कालखण्डेषु विहितानाम् भ्रष्टाचाराणाम् पञ्चविंशतेः घटनानाम् अनुसन्धानाय आयोगम् संघटयितुम् पूर्वकार्यम् कृतम् वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदैः गृहमन्त्रिणा रवि लामिछाने इत्यनेन सह विहिते प्रश्नोत्तरणस्य क्रमे गृहमन्त्री लामिछाने भ्रष्टाचारस्य घटनाः राजनीतिक प्रभावात् रक्षितुम् सर्वकारः प्रतिबद्धोऽस्तीति अगदत्। उपवेशे सांसदानाम् प्रश्नान् उत्तरयन्ति शिक्षा विज्ञान प्रविधि मन्त्री सुमना श्रेष्ठ। विश्वविद्यालयेषु दलीय राजनीतिम् रोद्धुम् प्रतिबद्धताम् व्यक्तवती। उपवेशे अर्थमन्त्री वर्षमान पुन आयव्ययकम् नीति कार्यक्रमाणाम् अनुसारेणैव आनीतम् अस्तीति स्पष्टीकृतवान्। उपवेशे ऊर्जो जलस्रोत सेचन मन्त्रिणा शक्तिबहादुर बस्नेत इत्यनेन एतद् विक्रमवर्षीयम् जलस्रोत विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतस्य प्रस्तावस्य सैद्धान्तिक विमर्शने भागम् गृह्णन्तः सांसदाः नेपालस्य जलस्रोतसाम् सदुपयोगम् कृत्वा अधिकमात्रायाम् विद्युतः उत्पादनत्वेन योजनाः निर्मातव्याः इति बलम् दत्तवान्। राष्ट्रियसभाया ह्यस्तनोपवेशेन नवीकरणीयोर्जसा ऊर्जोदक्षतया च सम्बद्धम् एतद् विक्रमवर्षीयम् विधेयकम् विधायन व्यवस्थापन समितौ प्रेषितम् वर्तते। उपवेशेन ऊर्जोजलस्रोत सेचन मन्त्रिणः शक्तिबहादुर बस्नेत इत्यस्य पक्षतः शिक्षा विज्ञान प्रविधि मन्त्रिणा सुमना श्रेष्ठेन प्रस्तुतम् नवीकरणीयोर्जसा ऊर्जोदक्षताया च सम्बद्धम् एतद् विक्रमवर्षीयम् विधेयकम् सूत्रगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। एवमेव ह्यस्तनोपवेशे एतद् विक्रमवर्षीयम् विनियोजन विधेयकमाधृत्य विभिन्न मन्त्रालयगत शीर्षकेषु विमृष्टमस्ति। विमर्शने केचन सांसदाः आयव्ययकेन संघीयतायाः मर्मणः अनुसारेण सर्वाणि क्षेत्राणि सर्वे निकायाः समुदायाश्च न समाविष्टा इति अभासन्त। केचन सांसदाः विभिन्नेषु स्रोतसाधनेषु आर्थिकावस्थायाः अनुसारेण सन्तुलितम् आयव्ययकम् प्रस्तुतम् अस्तीति अगदन्। राष्ट्रियसभायाः अपरोपवेश अद्य दिवा सपादैकवादने वस्ता। नेपाली कांग्रेस दलेन महासमितेः उपवेशात् पारितम् प्राविलेखनम् केन्द्रीय समितेः उपवेशे नेष्यते। बुढा नीलकण्ठवर्तिनी सभापतेः शेरबहादुर देवाभिधस्य निवासे दलस्य पदाधिकारिणाम् पूर्व पदाधिकारिणाम् च उपवेशेन निर्णयोऽयम् विहितोऽस्ति। एतान् प्राविलेखान् उपवेशेन अन्तिम निर्णयाय अन्तिम समितौ नेतुम् निर्णीतमस्तीति केन्द्रीय सदस्य प्रचार विभाग प्रमुखश्च मीन विश्वकर्मा असूचयत। उपवेशेन दलस्य प्राय भ्रातृ संस्थानाम् समयावधेः समाप्तत्वात् अवधेः वर्धनस्य विषयेऽपि विमृष्टमिति प्रचार विभाग प्रमुख विश्वकर्मा अज्ञापयत्। उपप्रधान परराष्ट्रमन्त्री नारायण काजी श्रेष्ठः भासते राष्ट्रहितम् केन्द्रे संस्थाप्य भूराजनीतिकावस्थायाः विश्लेषणम् आवश्यकम् वर्तते। परराष्ट्र विषयाध्ययन प्रतिष्ठानेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री श्रेष्ठः देशस्य जनतायाश्च हितम् केन्द्रे संस्थाप्य विकास सहयात्रिणा विश्वसमुदायेन सह सम्बन्धस्य स्थापनम् भूराजनीतिक घटनानाम् मापनम् च विधातव्यमिति धारणाम् अभिव्यनक। नेकपा एकीकृत समाजवादी दलेन दशमम् राष्ट्रिय महाधिवेशनम् पूरयितुम् दलस्य सम्मानित नेतु झलनाथ खनालस्य अध्यक्षतायाम् त्रयोदश सदस्यीयम् अध्यक्षमण्डलम् संघटितम् वर्तते। दलस्य अध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायाम् ह्य उपविष्टेन महाधिवेशनस्य आन्तरसत्रेण अध्यक्षमण्डलम् संघटितम् अस्ति। पशुपति क्षेत्र विकास कोषस्य कार्यकारी निर्देशक पदे सुभाष चन्द्र जोशी नियुक्तो वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा हितबहादुर तामाङ इत्यस्य अध्यक्षतायाम् ह्य उपविष्टेन पशुपति क्षेत्र विकास संचालक समितेः उपवेशेन जोशिनम् कार्यकारी निर्देशक पदे नियुक्तुम् निर्णीतम् अस्ति। ओखलढुङ्गा जनपदे भूस्खलनेन पञ्च परिवारः विस्थापिताः वर्तन्ते। भूस्खलनेन ओखलढुङ्गा जनपदस्य मोलुङ ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य जैसी गौरी डाँडा स्थानस्य पञ्च परिवाराः विस्थापिताः सन्ति।